राम द्वादश लिंग स्तोत्रम् सौराष्ट्र देशे वसुधावकाशे ज्योतिर्मयं चंद्रकलावतंसं भक्ति प्रदानाय कृतावतारं तं सोमनाथं शरणं प्रपद्ये तं सोमनाथं शरणं प्रपद्ये श्रीशैल शृंगे विविध प्रसंगे शेषाद्रिशृंगे सदा वसंतं तमर्जुनं मल्लिकपूर्वमेनं नमामि संसार समुद्र सेतुं नमामि संसार समुद्र सेतुं अवंतिकायां विहितावतारं मुक्ति प्रदानाय च सज्जनानां अकाल मृत्योः परिरक्षणार्थं वंदे महाकालमहं सुरेशं वंदे महाकालमहं सुरेशं कावेरिका नर्मदयोः पवित्रे समागमे सज्जनतारणाय सदैव मांधा त्रिपुरे वसन्तं ओंकारमीशं शिवमेकमीडे ओंकारमीशं शिवमेकमीडे पूर्वोत्तरे पारलिकाभिधाने सदाशिवं तं गिरिजासमेतं सुरासुराराधितपादपद्मं श्रीवैद्यनाथं सततं स्मरामि श्रीवैद्यनाथं सततं स्मरामि आमर्दसंज्ञे नगरे च रम्ये विभूषिताङ्गं विविधैश्च भोगैः सद्भुक्ति मुक्ति प्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये श्रीनागनाथं शरणं प्रपद्ये सानन्दमानन्दवने वसन्तं आनन्दकन्दं हतपापबृन्दं वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये श्रीविश्वनाथं चरणं प्रपद्ये लोडाकिनी शाकिनिका समाजे विषेव्यमानः पिशिताशनैश्च सदैव भीमादिपद प्रसिद्धं तं शंकरं भक्तहितं नमामि तं शंकरं भक्तहितं नमामि श्रीताम्रपर्णी जलराशियोगे निबध्य सेतुं निशिबिल्वपत्रैः श्रीरामचन्द्रेण समर्चितं तं रामेश्वराख्यं सततं नमामि रामेश्वराख्यं सततं नमामि सिंहाद्रिपार्श्वेऽपि तटे रमन्तं गोदावरीतीरपवित्रदेशे यद्दर्शनात् पातकजातनाशः प्रजायते त्र्यम्बकमीशमीडे प्रजायते त्र्यम्बकम् ईशमीडे हिमाद्रिपार्श्वेऽपि तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः सुरासुरैर्यक्षमहोरगाद्यैः केदारसंज्ञं शिवमीशमीडे केदारसंज्ञं शिवमीशमीडे एलापुरी रम्य शिवालयेऽस्मिन् समुल्लसन्तं त्रिजगद्वरेण्यं वन्दे महोदारतरस्वभावं सदाशिवं तं धिषणेश्वराख्यं सदाशिवं तं धिषणेश्वराख्यम् एतानि लिङ्गानि सदैव मर्त्याः प्रातः पठन्तो अमलमानसाश्च ते पुत्रपौत्रेश्च धनेरुदारैः सत्कीर्तिभाजः सुखिनो भवन्ति राम राम।